गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनश्रन्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती बाजेभिर्वाजिनीवते धेनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो दैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः यातयिषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुभाषन्तमया गिरिशन्ताभिचाकशे यामिषम् गिरिशन्तहस्ते विवश्यस्तवे शिवाङ्गिरित्रताम् कुर्मानि गुंसे पुरुषम् जगत शिवेन वचसा त्वा गिरिशा च वदामसे यथा नः सर्वमिज्जगद यक्ष्मगुं सुमना अचत अद्य वोचनदि भक्ता प्रथमो दैव्यो विशक अयैकश्च सर्वाञ्जं वयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत वभ्र सुमङ्गलः ये चेमागुम् रुद्रा अमितो दिक्ष्वश्रुता सहस्रशो वैशागुम् हेड इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि च दृष्ट मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन् नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मयोर्च्याम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्यनुस्त्वम् सहस्राक्षजतेषु ते निषेर्यशल्यानाम् मुख शिवो नः सुमना भव वीर्यम् धनु कपद्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीदुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानाततय धृष्णवे उभाभ्यामुत ते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दृशां शपथये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पदये नमो नमस्तस्मिन् जरायत्वे श्रीमते पथीनां पदये नमो नमो बब्लुषाय विव्याधिने नानां पदये नमो नमो हरिकेशायोपवीतिने पुष्टानां पदये नमो नमो भवस्य हेत्यै जगतां पदये नमो नमो द्वित्राय तदा विनेक्षेत्राणां पदये नमो नमः सूताय हन्त्याय वनानां पदये नमो नमो रोहिताय स्थपतये वृक्षाणां पदये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पदये नमो नमो भवन्तये वारिवत्कृताय औषधीनां पदये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पदये नमो नमः कृत्स्नवेताय धावते सत्त्वनां पदये नमः नमः सहमानाय व्याधिया व्याधिनीनां पदये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पदये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पदये नमो नमो वञ्चते परिवञ्चते स्तायूनां पदये नमो नमो निचेरवे परिचरायारण्यानां पदये नमो नमः सृकाविभ्यो जिगागुंसद्भ्यो मुष्णतां पदये नमो नमो श्रीमद्भ्यो न सञ्चरद्भ्य प्रकृन्तानां पदये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानां पदये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जागृद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो भ्रातेभ्यो भ्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यस्तेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः नमो भवा ఇంద్రాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కవర్ణినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిబిభిష్టాయ చ నమో మేఘుష్టమాయ చేశుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో వృద్ధాయ చ సంవృద్ధనే చ నమో అగ్రయాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రయాయ చ సేవ్యాయ చ నమః ౌన్యాయ చావన్యాయ చ నమః శ్రోత్యాయ చ నేభ్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః ఊర్ధ్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ ప్రగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్యాయ చ నమః సౌభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేనాయ చాశురథాయ చ నమః శూరాయ చావవిందతే చ నమో వర్మినే చ వరూథినే చ నమో భిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దంభ్యాయ చ అనన్యాయ చ నమో దష్ణవే చ ప్రమృశాయ చ నమో ద్యౌతాయ చ రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమస్తే స్నేషవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శుత్యాయ చ వత్స్యాయ చ నమః కాత్యాయ చ నీత్యాయ చ నమః శూద్ధ్యాయ చ సరస్యాయ చ నమో నాధ్యాయ చ వైషంతాయ చ నమః కూప్యాయ చ వట్యాయ చ నమో వశ్యాయ చ వశ్యాయ చ నమో మేధ్యాయ చ విద్యుత్యాయ చ నమః ఐంద్రియాయ చ తప్యాయ చ నమో మాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తవాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తీర్థ్యాయ చ కుల్యాయ చ నమః పాద్యాయ చ వాద్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ చ లాధ్యాయ చ నమః శస్ప్యాయ చ వేణ్యాయ చ నమః శికత్యాయ చ ప్రవాహ్యాయ చ నమ హిరణ్యాయ చ ప్రపథ్యాయ చ నమః కింగుం శిలాయ చ క్షయణాయ చ నమః కవర్దినే చ పులస్తయే చ నమో గోష్ఠ్యాయ చ గృహ్యాయ చ నమస్తల్ప్యాయ చ గేహ్యాయ చ నమః कात्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पांसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः ऊर्याय च शून्याय च नमः पर्ण्याय च पर्णशध्याय च नमो पघुरमाणाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो भक्तिरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विजिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीवत्केभ्यः द्रावे अंधसस्पते दरिद्रं नीललोहिता येषां पुरुषाणां येषां पशूनां माभिर्मारोमो येषां किञ्च नाममत् याते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुं रुद्राय तवसे कवर्दिने क्षयद्धीराय प्रवरामहे मतिम् यथा नश्चमसद्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् मृगानो रुद्रोतनो मयस्कृत् क्षयद्वीराय नमसा विधेमते यच्चं चयोश्च मनुराय जे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकं मानवुक्षन्तमुतमानवुक्षितम् मानो वदे पितरं मोत मातरं प्रियामानस्तनुवो रुद्रनीरिषः मानस्तोकेतनये मान आयुषिमानो गोषुमानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वने हविष्मन्तो नमसा विधेमते आराते गोघ्न उत पूरुषघ्ने क्षयद्धीराय सुम्नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूयदा च नः शर्म यच्च द्विवर्णाः तुरिश्रुतं गर्तसदं युवानं मृगन्न भीममुपहत्नमुग्रम् रुणाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तसेनाः परिणो रुद्रस्य हेतुर्वृणत्वपरि त्वेषस्य दुर्मतिरभायो अवस्थिरा भगवद्भ्यस्तनुष्वमीनौकायतनयाय मृणय मेढुष्टम शिवतम शिवो न सुमना भव परमे वृक्ष आयुधन्निनाय कृत्ति वदान आचर पिनाकं बिभ्रदागहे विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुं हेतयोन्यमस्मन्निवपन्तुताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचेना मुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुं सहस्रयोजने वथन्वानि तन्मसे अस्मिन्महत्यर्णवेन्दरिक्षे भवा अरे नीलग्रीवाशिरिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशिरिकण्ठादिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकाशकपर्णिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पथिरक्षय ऐलवृदाय युगः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः येतावन्तश्च भूयागुंस च दिशो रुद्राभितस्थिरे तेषागुंसहस्रयोजने वधन्वानि तन्वसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवेशामन्नम् वातो वर्षविषवस्तेभ्यो दश प्राचे दश दक्षिणा दश प्रतिचेर्दशोदेचेर्दशोद्वाक्षेभ्यो नमस्ते नो मृणयन्तु तेयम् विष्मो यश्च नो द्वेष्टितम् भोजम् वेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् अर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सुय ओषधीश्वयो रुद्रो विश्व भुवना विवेश तस्मै रुद्राय नमो अस्सौ एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रौ मा विशान्तकः एनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टभियस्विशस्वधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेतौ मनसाय रुद्रम् नमोभिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तर अयम् मे विश्ववे च योयगम् शैवाभिवर्षणः ॐ शान्ति शान्ति शान्तिः अग्ना विष्णो सजो ससेमा वर्धन्तु वाग्निनः जुम्नेर्वाजेभिरागतम् वाजस्य मे प्रसवस्य मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरस्य मे श्लोकस्य मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवस्य मे प्राणश्च मे पानश्च मे ज्ञानश्च मे सुश्च मे चित्तम् च म आदितम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहस्य म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परुगुंषि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामस्य मे मस्य मे मस्य मे जयमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वश्मा च मे द्रायुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमानं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपदं च भरद्धं च भरद्धश्च मे क्लुप्तं च मे क्लुप्तश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे घृतिश्च मे विश्वं च मे महश्च मे संवित् च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे क्षीरं च मे लयश्च मृतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ओच्च मे सौनिता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्दिश्च मे सपेदिश्च मे कृशिश्च मे वृष्टिश्च मे जयत्रं च मोदिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मे नं च मे क्षुश्च मे वैरयश्च मे यवाश्च मे माशाश्च मे तैलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे शामाकाश्च मे नैवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे त्रिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च महापश्च मे विरुदश्च महौषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च महेमश्च महितिश्च मे गतिश्च मे अग्निश्च महेन्द्रश्च मे सोमश्च महेन्द्रश्च मे सविता च महेन्द्रश्च मे सरस्वती च महेन्द्रश्च मे ओषा च महेन्द्रश्च मे बृहस्पतिश्च महेन्द्रश्च मे मित्रश्च महेन्द्रश्च मे वरुणश्च महेन्द्रश्च मे त्वष्टा च महेन्द्रश्च मे धाता च महेन्द्रश्च मे विष्णुश्च महेन्द्रश्च मे श्वयौ च महेन्द्रश्च मे मरुतश्च महेन्द्रश्च मे विश्वे च मे देवा इन्द्रस्य मे पृथिवीच महेन्द्रस्य वेन्दरिक्षञ्च महेन्द्रस्य वेद्योश्च महेन्द्रस्य वेदिशश्च महेन्द्रस्य वे मूर्धा च महेन्द्रस्य वे प्रजापतिश्च महेन्द्रस्य वे अघुंशुश्च मे रश्मिश्च मेधाभ्यश्च मे धिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आशयनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च महाग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैशानरश्च मरुतग्रहाश्च मे दिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्मीमतश्च मे हार्योजनश्च मे विद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्ण्याश्च मे शुचश्च मे चमसाश्च मे ग्रावारश्च मे स्वरवश्च म उपरवाश्च मे धिषवने च मे द्रोणकलशश्च मे वायव्यानि च मे पूतवृक्ष म आद्रवणीयश्च म आग्नेयेन्द्रं च मे हविर्दानं च मे ग्रहाश्च मे सदस्य मे पुरोडाशाश्च मे पचताश्च च मे अवृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे श्ववेदश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरन्दुलयो दिशश्च मे यज्ञेन कल्पं तामृच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे ऋतं च मे होरात्रयोर्भ्रष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयवेश्च मे त्रयवे च मे नित्यवाच्य मे नित्यौ हे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यौ हे च मे पष्टवाच्य मे पष्टौ हे च म उक्षा च मे वशा च मर्षभश्च मे मेहश्च मे नट्वा च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतामुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म ए ఏకత్రిగుంశ్చ మే త్రయస్త్రిగుంశ్చ మే చతస్రశ్చ మేష్టౌ చ మే ద్వాదశ చ మే షోడశ చ మే ఏకుంశతిశ్చ మే చతుర్విగుంశతిశ్చ మేష్టావిగుంశతిశ్చ మే ద్వాత్రిగుంశ్చ మే షట్రిగుంశ్చ మే చత్వారిగుంశ్చ మే చతుశ్చత్వారిగుంశ్చ మేష్టాచత్వారిగుంశ్చ మే వాజశ్చ ప్రథవశ్చాభిజశ్చ క్రతుశ్చ సువశ్చ మూర్ధాచ యష్ణయశ్చాంత్యాయనశ్చాంత్యశ్చ భువనశ్చ భువనశ్చాధిపతిశ్చ ఇడాదేవోర్మనుయజ్ఞే బృహస్పతిరుక్తామదాని సంశిషద్విశ్వే దేవాచోక్తవాచ పృథివీమాతర్మాగుంసేర్మధుమనిష్యే మధుజనిష్యే మధువక్ష్యామి మధువరిష్యామి మధుమతి దేవేభ్యోవాచముద్యాతము శుశ్రౌచైన్యా మనుష్యే దేవా అవంత శోభాయ పితరోను వదంతు శాంతి 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 అత్రిగాత్వాగ్రిమే హన్మే కణ్వేన జమదగ్నినా విశ్వావసోర్బ్రహ్మణా హతః క్రిమేనాగుం రాజా అప్యేషాగుస్తవతిర్హతః అథో మాతా తో పితా అథో స్థౌరా అథో చక్రా అథో కృష్ణ అథో శ్వేత అథో ఆశాత్యకా హతా శ్వేతాభిః సహ సర్వే హతా ఆహరావద్యా శ్రుతస్య హవిషో యథా తత్ సత్యం యదమం యమస్య జంభయోః ఆదధామి తథా హి తత్ కన్ఫ్రన్వతే ఓం శాంతి 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 ఓం ధాతా పురస్తాద్యముదాజార చక్ర ప్రవిద్వాన్ ప్రదిశశ్చతస్ర తమేవం విద్వానమృత ఇహ భవతే నాన్య పంథా అయనాయ విద్యతే సహస్రశీరుషం దేవం విశ్వాక్షం విశ్వశంభువం విశ్వం నారాయణం దేవమక్షరం పరమం పదం విశ్వత పరమానిత్యం విశ్వం నారాయణగుం హరిం విశ్వమేవేదం పరుషస్తద్విశ్వముపజీవతి పతిం విశ్వస్యాత్మేశ్వరగుం శాశ్వతగుం శివమచ్యుతం నారాయణం మహాజ్ఞేయం విశ్వాత్మానం పరాయణం నారాయణ పరో జ్యోతిరాత్మా నారాయణ పర నారాయణ పరం బ్రహ్మతత్వం నారాయణ పర నారాయణ పరో ధ్యానం నారాయణ పర యచ్చ కించిత్ జగత్ సర్వం దృశ్యతే శ్రూయతే పివా అంతర్బహిశ్చ తత్సర్వం వ్యాప్య నారాయణ స్థితః అనంతమవ్యయం కలిగుం సముద్రేంతం విశ్వశంభువం పద్మకోశం ప్రతికాశగుం హృదయం చాభ్యదోముఖం अदोनिष्ट्यागितस्यान्ते नाभ्यामुपरितिष्ठते ज्वालमाला कुलं भाति विश्वस्यायतनं महत् सन्ततपुंसिया विस्तुलं भक्त्या कोशसन्निभम् तस्यान्ते सुजयगुं सूक्ष्मम् तस्मिन् सर्वं प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चि विश्वतो मुखः चोग्रभु विभजन्ति स्तन्नाहारमजरः कविः हेयोध्वमदस्यायि रश्मयस्तस्य सन्तता सन्तापयति स्वं देहमापालतलमस्तकः तस्य मध्ये वह्निशिखा अनेयोर्ध्वा व्यवस्थितः नीलतो यदमध्यस्ता विद्युल्लेखे भवास्वरा नैवारशोकमन्निपेता भा सत्यनुपमा तस्याशिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मस्य शिवश्च हरिशेन्द्रस्वोऽक्षरः परमस्वराड् ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् ॐ शान्ति शान्ति शान्तिः निधनपतये नमः निधनपतान्तिकाय नमः ऊर्ध्वाय नमः ऊर्ध्वलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः सुवर्णलिङ्गाय नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः सर्वाय नमः सर्वलिङ्गाय नमः शिवाय नमः शिवलिङ्गाय नमः ज्वलाय नमः ज्वललिङ्गाय नमः आत्माय नमः आत्मलिङ्गाय नमः परमाय नमः परमलिङ्गाय नमः एतत् सोमस्य सूर्यस्य सर्वलिङ्गस्तावयति पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भव स्वमाम् भवोद्भवाय नमः भावदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमदनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः अघोरेभ्योऽथ गोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्य सर्वसर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्म शिवो मे अस्तु सदा शिवो नमो हिरण्यभावे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अम्बिकापतये उमापतये पशुपतये नमो नमः रतगुं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ोद्धरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वै रुद्रसन्मभो नमो नमः विश्वम् भूतम् भुवनम् चित्रम् बहुधा जातम् जायमानम् च यत् सर्वो हेश रुद्रस्तस्मै रुद्राय नमो अस्तु कद्रुद्राय प्रचेतसे मेनुष्टमायतव्यते वोचे मसन्तमगुम् हृदे सर्वो हेश रुद्रस्तस्मै रुद्राय नमो अस्तु स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महे महेशा गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोका सुखिनो भवन्तु समस्तलोका सुखिनो भवन्तु शान्ति शान्ति शान्ति